कंसोऽथ नारदगिरा व्रजवासिनं त्वाम् आकर्ण्यदीर्णहृदयः सहि गान्दिनेयम् आहूय कार्मुखमखच्छलतो भवन्तम् आनेतुम् येन महिनोत् अहिनाथशायिन् अक्रूर एषः भवदङ्घ्रिपरः चिराय त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या तस्याज्ञयैव पुनः ईक्षितुमुद्यतस्त्वाम् आनन्दभारम् अतिभूरितरं बभारा सोऽयं रथेन सुकृती भवतो निवासं गच्छन् मनोरथगणान् त्वयि धार्यमाणान् आस्वादयन् मुहुः अपायभयेन दैवं सम्प्रार्थयन् पथि न किञ्चिदपि व्यजानात् द्रक्ष्यामि वेदशतगीतगतिं पुमांसं स्प्रक्ष्यामि किं स्वित् अपि नाम परिष्वजेयं किं वक्ष्यते स खलु मां कोनुवीक्षितः स्यात् इत्थं निनायसः भवन्मयमेव मार्गं भूयः क्रमात् अभिविशन् भवदङ्घ्रिपूतं बृन्दावनं हरविरिञ्चसुराभिवन्द्यम् आनन्दमग्न इव लग्न इव प्रमोहे किं किं दशान्तरम् अवापन पङ्कजाक्षा पश्यन्न वन्दत भवद्विहृतिस्थलानि पांसुषु अवेष्टत भवच्चरणाङ्कितेषु किं ब्रूमहे बहुजना हि तदापि जाताः एवं तु भक्तितरलाः विरलाः परात्मन् सायं सह गोपभवनानि भवच्चरित्रगीतामृतप्रसृतकर्णरसायनानि पश्यन् प्रमोदसरितेव किलोह्यमानः गच्छन् भवद्भवनसन्निधिम् अन्वयासीत् तावद्दर्श पशुदोहविलोकलोलं भक्तोत्तमागतिमिव प्रतिपालयन्तं भूमन्भवन्तम् अयम् अग्रजवन्तम् अन्तर्ब्रह्मानुभूतिरससिन्धुम् इवोद्वमन्तं सायन्तनाप्लवविशेषविविक्तगात्रौ द्वौ पीतनीलरुचिराम्बरलोभनीयौ नातिप्रपञ्चधृतभूषणचारुवेषौ मन्दस्मितार्द्रवदनौ सयुवां ददर्शा दूरात् रथात् समवरुह्य नमन्तमेनम् उत्थाप्य भक्तकुलमौळिम् अथोपगूहन् हर्षान्मिताक्षरगिरा कुशलानुयोगी पाणिं प्रगृह्य सबलोथ गृहं निनेथ नन्देन साकम् अमितादरम् अर्चयित्वा तं यादवं तदुदितां निशमय्य वार्तां गोपेषु भूपतिनिदेशकथां निवेद्य नानाकथाभिः इह तेन निशामनैषीः चन्द्रागृहे किमुत चन्द्रभगागृहेनु राधागृहेनु भवने किमु मैत्रविन्दे धूर्तो विलम्बत इति प्रमदाभिः उच्चैराशङ्कितो निशि मरुत्पुरनाथपायाः ओं तत्सदिति श्रीमन्नारायणीये द्विसप्ततितमं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।